सौन्दर्यलहरी श्लोका 71 नखानामुद्योतैः नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयाम कथमुमे कयाचिद्वा साम्यं भजतु कलया हन्तकमलं यदि क्रीडल्लक्ष्मी चरणतल लाक्षारसचणं श्लोक 72 समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं न खेदं हरतु सततं प्रश्नुतमुखं यदालोक्या शङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्भः परिमृशति हस्तेन झटिति श्लोक 73 अमूते वक्षोजौ अमृतरसमाणिक्यकुतुपौ न सन्देहस्पन्दः नगपतिपताके मनसिनः पिबन्धौ तौ यस्यात् अविदितवधूसङ्गरसिकौ कुमारावध्यापि द्विरवदन क्रौञ्चदलनौ श्लोक 74 वहत्यम्बस्तम्भे रमधनुजकुम्भप्रकृतिभिः समारब्धा मुक्ता मणिभिः अमलां हारलतिकां कुचाभोगो बिम्बादररुचिभिः हन्तशपलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिवते श्लोक 75 तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वतमिव दयावत्यात् दत्तं द्रविडशिशुर्हु आस्वाद्य तव यत् कवीनां प्रौढानाम् अजति कमनीयः कवयिताम्